ಮೇಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಃ ಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೀದ ಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿರ್ವಾಜಿನೀವತೀ ಧೀರಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವಭೂತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಜ್ಞಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾಥರುರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಶೀ
ಯಾಮಿಷುಂ ಗಿರಿಶಂ ತಹಸ್ತೇ ಬಿಭರ್ಷ್ಯಸ್ತವೇ
ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಚಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿ ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಪದ್ಯವೋಚ ದಧಿ ಭಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ ಹರೇಗುಶ್ಚ ಸರ್ವಾನ್ಯಂಬಯನ್ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣವುತ ಬಭ್ರುಃ ಸುಮಂಗಲಃ ಯೇ ಚೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷು ಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಳ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉತೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉತೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಳಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಡುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂತೇಭ್ಯೋ ಕರನ್ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ತ್ವಮುಭಯೋರಾತ್ನಿಯೋರ್ಜ್ಯಾ ಯಾಶ್ಚ ತೇ ಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪಾ ಅವತತ್ಯ ಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಧೇ ನಿಶೀರ್ಯ ಶಲ್ಯಾನಾಂ ಮುಖಾ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾನವಾಗುಂ ಹುತ ಅನೇಶನ್ನಶೇಷವ ಆಪುರಸ್ಯ ನಿಷಂಗತಿ ಯಾತೇ ಹೇತಿರ್ಮೀಡುಷ್ಟ ಮಹಸ್ತೆ ಬಭೂವತೇ ಧನು ಸಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಶ್ಯವೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ಋಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷು ದಿಸ್ತವಾರೆ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂಧಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿ ರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ ಸಸ್ಪಿಂಜರಾಯ ತ್ವಿಷೀಮತೇ ಪತೀನಾಂ पदये नमो नमो बभ्लुषाय विव्यादिने नानाम् पदये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पदये नमो नमो भवस्य हेत्यै जगताम् पदये नमो नमो रुद्राय तथा विनेक्षेत्राणाम् पदये नमो नमः सूताय हन्त्याय वनानाम् पदये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पदये नमो नमो भुवन्तये वारिवस्कृता यौषधीनाम् पदये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पदये नमो नम कृष्णवीताय धावते सत्त्वनाम् पदये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पदये नमो नमः ककुभाय निषङ्गिरे सेनानाम् पदये नमो नमो निषङ्गिन इषु धिमते तस्कराणाम् पदये नमो नमो वञ्चते परिवञ्चते सायूनाम् पदये नमो नमो निचेरवे परिचरायारण्यानाम् पदये नमो नमः सृकाविभ्यो जिघागुंसद्भ्यो मुष्यताम् पदये नमो नमोऽसि मध्यो नक्तम् शरभ्यः प्रकृन्तानाम् पदये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पदये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिददानेभ्यश्च वो नमो नम आयश्चद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठभ्यो धावभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुम्हरेभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नम कुलालेभ्य कर्मारेभ्यश्च वो नमो नम पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नम मृगयुभ्यश्वनिभ्यश्च वो नमो नम श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मेरुष्टमाय चेषुमके च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाधिराय च नमः शीघ्रियाय च सेव्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेनाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरूधिने च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेशुधिमते च नमः तीक्ष्णे च वेचायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पद्याय च नमः काट्याय च नीप्याय च नमः शूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वासुवाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः स्थिर्याय च कुल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शस्प्याय च भेण्याय च नमः सिकत्याय च प्रवाह्याय च नम इरण्याय च प्रपद्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्याय च गेय्याय च नमः कात्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्याय च हरित्याय च नमो लोप्याय चोल्लप्याय च नमः ऊर्म्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च बिघ्नते च नमः आकिरते च प्रक्षिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्ष्णकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो एषाम् किञ्चनाममत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कभर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा न शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेमते यश्चम् चयोश्च मनुराय जे पिता तदस्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वधिर्भविष्मन्तो नमसा विधेमते आरात्ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यदा च न शर्म यच्छद्विवरहा सुहिश्रुतम् गर्तसदम् युवानम् मृगन्न भीममुपहद्रमुग्रम् मृगा च रुद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परिक्लेशस्य दुर्मतिरघायोः अवस्थिर मघवद्यस्तनुष्वमीडुस्तोकायतनयाय मृणया मीडुस्तमशिवतमशिवो नः सुमना भवा परमे वृक्ष आयुधम् निधाय कृत्रिम्बसा न आचर पिनाकम् बिभ्रदा गहि विगिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः तासामीशानो भगवः पराचेनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अधिभूम्याम् तेषागुम् सहस्रयोजने वदन्वानि तन्मसे अस्मिन्महत्यर्नवेऽन्तरिक्षे भवा अदि नीलग्रीवाश्रुतिकण्ठाः शर्वा अधः क्षमाचराः नीलग्रीवाश्रुतिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु षस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्कपर्दिनः ये अन्येषु विद्यन्ति पात्रेषु विभतो जनान ये पथाम् पथिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति सुकावन्तो निषङ्गिनः एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदिचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु देयम् विश्वो यश्च नो त्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योरुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सुय ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ఏతే శాస్త్రమయుతం పాశా మృత్యోర్మర్త్యాయ హంతవే యజ్ఞస్య మాయయా సర్వానమయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాప్యాయస్వా నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తముష్టుయ స్విషుసుధన్ వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమోభిర్దేవమసురందువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభేచ జోయగుం శివాభిమర్శనః ఓం శాంతి 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 ఓం అగ్నా విష్ణు సజోషసే మా వర్ధంతు భాంగిరః యుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రథమశ్చ మే ప్రయతిశ్చ మే ప్రతితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే సువశ్చ మే ప్రాణశ్చ మే పానశ్చ మే వ్యానశ్చ మే సుశ్చ మే చిత్తం చ మాదేదం చ మే వాక్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మోజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జరా చ మ ఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే స్థాని చ మే పరోగుంచి చ మే శరీరాణి చ మే జైష్ఠ్యం చ మ ఆధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మేంభశ్చ మే జేమా చ మే మహిమా చ మే బలిమా చ మే ప్రతిమా చ మే వష్మా చ మే ద్రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే త్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమానం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యత్ చ మే సుగం చ మే సుపథం చ మరుద్ధం చ మరుద్ధిశ్చ మే కృప్తం చ మే కృప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శం చ మే మయశ్చ మే ప్రియం చ మే నుకామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞా ం చ మే సోశ్చ మే ప్రసోశ్చ మే శీలం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే నమిత్రం చ మే భయం చ మే సుగం చ మే శయనం చ మే శోషా చ మే సుదినం చ మే ఊర్చ మే సోనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సగ్ధిశ్చ మే సపేతిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే చైత్రం చ మౌద్భిద్యం చ మే रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मे नम् च मे शुच्च मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्दाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे सीतम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुदश्च म ओषधयश्च मे कृष्णपत्यम् च मे कृष्णपत्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वृत्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदुग्रहाश्च मे त्रिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्ण्याश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृच्च म आधवनीयश्च म आग्नेयेद्रम् च मे हविधानम् च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे वचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे యజ్ఞేన కల్పంతాం మృచ్ఛ మే సామ చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్దదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవీ చ మే ద్వితీయవాచ్చ మే ద్వితీయోహీ చ మే పంచావిశ్చ మే పంచావీ చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాచ్చ మే తుర్యోహీ చ మే పష్టవాచ్చ మే పష్టౌహీ చ మఉక్షా చ మే వశా చ మరుషభశ్చ మే ద్వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం జ్ఞానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం గుశ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏకవిగుంసదిశ్చ మే త్రయోవిగుంసదిశ్చ మే పంచవిగుంసదిశ్చ మే సప్తవిగుంసదిశ్చ మే నవవిగుంసదిశ్చ మ ఏకత్రిగుంస చ మే త్రయస్త్రిగుంసచ్చ మే చతస్రశ్చ మే షౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంసదిశ్చ మే చతుర్విగుంసదిశ్చ మే ష్టావిగుంసదిశ్చ మే త్వాత్రిగుంసచ్చ మే షత్రిగుంసచ్చ మే చత్వారిగుంసచ్చ మే చతుశ్చత్వారిగుంసచ్చ మే ష్టాచత్వారిగుంసచ్చ మే వాచశ్చ ప్రసవశ్చ పిజశ్చ క్రతుశ్చ సువశ్చ మూర్ధా చ వ్యస్నేయశ్చాంత్యాయనశ్చాంత్యశ్చ భౌవనశ్చ భువనశ్చాధిపతిశ్చ ఇరాదే బహోర్మనుర్యజ్ఞనే బృహస్పతిరుక్తా మదాని సగుంసి షద్విశ్వే దేవాసూక్తవాచ పృథివీమాతర్మా మాహిగుంసేర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువరిష్యామి మధుమతీం దేవేభ్యో వాచముద్యాసగుం శుశ్రూషేణ్యా మనుష్యేభ్యస్తం మా దేవ అవంతు శోభాయై పితరో ను మదందు ఓం శాంతి 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 ఓం భద్రం కర్ణే విష్ణుయామ దేవా భద్రం పశ్యే మాక్ష్య వీర్యజత్రాః స్థిరైరంగైః స్వస్థవాగుంసస్తనూభిః వ్యసేమ దేవహితం యదాయుః స్వస్తి న ఇంద్రో వృద్రస్రవాః స్వస్తి న పూషా విశ్వవేదాః స్వస్తి నస్తార్క్ష్యో అరిష్టనేమిః స్వస్తి నో బృహస్పతిర్దధాతు ఓం శాంతి శాంతి శాంతిః అథ సూర్యాథర్వాంగిరసం వ్యాఖ్యాస్యామ బ్రహ్మా ఋషిః గాయత్రీ ఛందః ఆదిత్యో దేవతా హంస సోహమగ్నినారాయణ యుక్తం బీజం హల్లేకా శక్తిః వియదాది సర్గ సంయుక్తం కీలకం చతుర్విధ పురుషార్థ సిద్ధ్యర్థే వినియోగః षट्स्वरारूढेन बीजेन षडङ्गम् रक्ताम्बुजसं स्थितम् सप्ताश्वरधिनम् हिरण्यवर्णम् चतुर्भुजम् पद्मद्वयाभयवरदहस्तम् कालचक्रप्रणेतारम् श्रीसूर्यनारायणम् य एवम् वेद स वै ब्राह्मणः ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो न प्रचोदयात् सूर्य आत्मा जगतस्तस्तुषश्च सूर्याद्वै खल्विमानि भूतानि जायन्ते सूर्याद्यज्ञः पर्जन्यो नमात्मा नमस्ते आदित्य त्वमेव प्रत्यक्षम् कर्म कर्तासि त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् विष्णुरसि त्वमेव प्रत्यक्षम् रुद्रोऽसि त्वमेव प्रत्यक्षम् मृगसि त्वमेव प्रत्यक्षम् यजुरसि त्वमेव प्रत्यक्षम् सामासि त्वमेव प्रत्यक्षमथर्वासि त्वमेव सर्वम् छन्दोऽसि आदित्याद्वायुर्जायते आदित्याद्भूमिर्जायते आदित्यादापो जायन्ते आदित्याज्योतिर्जायते आदित्याद्व्योमदिशो जायन्ते आदित्याद्देवा जायन्ते आदित्याद्वेदा जायन्ते आदित्यो वा एष एतन्मण्डलम् तपति असावादित्यो ब्रह्मा आदित्यो अन्तःकरणमनोबुद्धिचित्ताहङ्काराः आदित्यो वै व्यानसमानो दानोपानप्राणः आदित्यो वै श्रोत्रत्वक्चक्षुरसनघ्राणाः आदित्यो वै वाक्पाणिपादपायूपस्थाः आदित्यो वै शब्दस्पर्शरूपरसगन्धाः आदित्यो वै वचनादानागमनविसर्गानन्दाः आनन्दमयो विज्ञानमयो विज्ञानघन आदित्यः नमो मित्राय भानवे मृत्योर्मा पाहि राजश्रवे विश्वहेतवे नमः सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु सूर्ये लयम् प्राप्नुवन्ति यः सूर्यस्सोऽहमेव च चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः चक्षुर्धाता दधातु नः आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्य प्रचोदयात् सविता पुरस्तात् सविता पश्चात्तात् सवितोत्तरात्तात् सविता धरातात् सविता नः सुवतु सर्वतादिगुम् सविता नो रासताम् निर्घमायुः ओमित्येकाक्षरम् ब्रह्मा घृणिरिति द्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याष्टाक्षरो मनुः यः सदा हरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात् प्रमुच्यते अलक्ष्मीर्नश्यति अभक्ष्यभक्षणात् पूतो भवति अगम्यागमनात् पूतो भवति पतितसम्भाषणात् पूतो भवति असत्सम्भाषणात् पूतो भवति मध्याह्ने सूर्याभिमुखः पठेत् सद्योत्पन्नपन्न महापातकात् प्रमुच्यते सैषा सावित्री विद्या न किञ्चिदपि न कस्मैचित् प्रशंशयेत् य एतान् महाभागप्रात पठति स भाग्यवान् जायते पशून् विन्दति वेदार्थम् लभते त्रिकालमेतज्जप्त्वा प्रदुषत फलमवाप्नोति हस्तादित्ये जपति स महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषत् भद्रम् कर्णे विशृणुयाम देवाः भद्रम् पश्ये माक्षभिर्यजत्राः शिरैरङ्गैः सुष्टुवागुंसस्तनूभिः
यसेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न ओषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो हरिस्तनेमि स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ तेजोऽसि तत्ते प्रयच्छामि तेजस्वदस्तु मे मुखम् तेजस्वच्चिरो अस्तु मे तेजस्वान् विश्वतः प्रत्यन् तेजसासं विवृद्धि मा ओजोषे तत्ते प्रयच्छामि ओजस्वदस्तु मे मुखम् ओजस्वच्चिरो अस्तु मे ओजस्वान् विश्वतः प्रत्यन् ओजसातम् विवृद्धि मा पयोसि तत्ते प्रयच्छामि पयस्वदस्तु मे मुखम् पयस्वच्चिरो अस्तु मे पयस्वान् विश्वतः प्रत्यन् पयसातम् विवृद्धि मा आयुरसि तत्ते प्रयच्छामि आयुष्मदस्तु मे मुखम् आयुष्मच्छिरो अस्तु मे आयुष्मान् विश्वतः प्रत्यङ् आयुषासं विवृद्धि मा इममग्न आयुषे वर्चसे कृधे प्रियगुं रेतो वरुण सोमराजन् मा ते वा आस्मा अदिते शर्म यच्च विश्वे देवाजरदष्टिर्यथा सत् आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि यतो वाचो मनोजवाः यतः क्षरन्ति सिन्धवः तासाम् त्वा सर्वासागुम् मृचा अभिषिञ्चा विवर्चसा समुद्र इवासि गम्भना सोम इवास्यदाभ्यः अग्निरिव विश्वतः प्रत्यङ्ग सूर्य इव ज्योतिषा विभोः अवायो द्रवणेरसः तमहमस्मामुष्यायणाय तेजसे ब्रह्मवर्चसाय गृह्णामि अवाय ऊर्मौरसः तमहमस्मामुष्यायणाय ओजसे वीर्याय गृह्णामि अपायो मध्यतोरसः तमहमस्मामुष्यायणाय पुष्टये प्रजननाय गृह्णामि अपायो यज्ञियोरसः तमहमस्मामुष्यायणाय आयुषे दीर्घायुत्वाय गृह्णामि ॐ शान्ति 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 राजाधिराजाय प्रसन्नसाहिने नमो वयं वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः स्वस्ति प्रजाभ्य परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ